येनाक्षरसमाह्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते. गतकक्षायाम् किं किं जातम् इति किञ्चित् पश्यामः. आदौ बाह्यप्रयत्नानां विषये अस्माभिः अधीतम्. बाह्यप्रयत्नाः एकादश एकम् बाह्यप्रयत्नस्तु एकादशः इत्युक्त्वा दीक्षितैः उक्तम्. एकादश बाह्यप्रयत्नाः सन्ति: विकारः संवारः, श्वासः नादः, घोषः अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितश्चेति. तत्र विकार श्वास अघोष इत्याख्याः त्रयः अपि प्रयत्नाः एतेषां वर्णानां भवन्ति. कख चिछ सुठ सुथ पुथ वर्गाणाम्
So maybe we lost you for maybe 10 seconds.
I just said I'm muted somehow.
Oh.
I don't know. Okay. Tatra vivara shvasa ghosha iti trayah prayatnaha api etesham varnanam sambhavanti. Vardhanam prathama dvitiya akshare shoshu tatha yamo vardhanam prathama varnasya यमः द्वितीयवर्णस्य यमः विश्वामूलीय उपध्मानीय वितर्काः. सरलतया वक्तव्यं चेत् खर् वर्णानां खर् ख ख छ ख थ च र थ ष ष स इत्येतेषां वर्णानां विवार श्वास अघोषाः प्रयत्नाः. एवमेव मृदुव्यञ्जनानां हश् वर्णानां संवार नादघोषाः प्रयत्नाः. दीस् आर् टु बेसिक् सेट्स् आफ् बाह्यप्रयत्न. The other set includes Alpaprana and Mahaprana. Varganam Prathama Tritiye Panchamaha Antasthaha Yavaralashcha Alpapranaha Varganam Dithiye Chatutthu Shasha Saha Ityete Mahapranaha Naha Udatta Anudatta Swaritaha Acham Itha Purvameva Adhitam Swaranam Ete Prayatnaha Sambhavanti Evam Bahya Prayatnaha Ekadashatha इत्युक्त्वा पुनः क्रियास्य प्रयत्नं सवर्णम् इत्यत्र इदं सर्वम् आरब्धं. स्थानानि प्रयत्नाः इति तत्रैव क्रियास्य प्रयत्नं सवर्णम् इत्यस्यैव कश्चन किञ्चन वार्तिकमस्ति. दृढवर्णयो मिथसावर्ण्यं वाच्यम् इति. ऋकारऋकारयोः यद्यपि तुल्यस्थानत्वं नास्ति तथापि सावर्ण्यं वक्तव्यं केषाञ्चन प्रयोगाणां साधनार्थम् इति वार्तिककृता उक्तम्. तस्मात् इदं वार्तिकम् अङ्गीक्रियते. ऋवर्णयोः परस्परं सावर्ण्यमस्ति. एवं सवर्णसंज्ञां विधाय तस्य निषेधं वदति पाणिः नाज्झलौ इति. किमर्थं नाज्झलौ इति सूत्रम् आरब्धम् इति चेत् अकारहकारयोः प्रयत्न अभ्यन्तरप्रयत्नविषये वदन्तः दीक्षिताः उक्तवन्तः. पृष्टं प्रयतनं स्पर्शानाम् ईषत्स्पृष्टम् अन्तःस्थानां विरतम् ऊष्मणां स्वराणां च इति. स्वराणाम् ऊष्मणाम् इति उभयेषां पृथक्प्रयत्न तथा सति अकारस्य हकारस्य च स्थानं कण्ठ इति समानम् अकुहविसर्जनीयानां कण्ठः इत्यनेन प्रयत्नस्य विवृतः विवृतम् ऊष्मणां स्वराणां च तुल्यास्य प्रयत्नस्तात् परस्परं सावर्ण्यं प्राप्नोति इति शङ्का. सावर्ण्यप्राप्ते को दोषः इति चेत् दधि शीतलम् इत्यत्र सवर्णदीर्घः स्यात्. यथा दधि इव इत्यत्र सवर्णदीर्घः भवति तथैव दधि शीतलम् इत्यत्रापि सवर्णदीर्घः स्यात् यदि इकारशकारयोः परस्परं सावर्ण्यमस्ति. एवमेव यदि अकारहकारयोः ऋकारषकारयोः परस्परं सावरण्यमस्ति तर्हि दधि हरति दधि षष्ठं दधि सान्द्रम् इत्यत्रापि असवर्णे अतिपरे यणादेशः स्यात् इति इको यणति इति सूत्रेण यणादेशः स्यात् इति आपत्तिः. ताम् आपत्तिं निवारयितुं पाणिनेन एकं सूत्रं प्रणीतं नाज्झलौ इति. किमुच्यते सूत्रेण न अच् हलौ इति सामान्यतः छेदः. अच् नाम स्वराः, हल् नाम व्यञ्जनानि, स्वराणां व्यञ्जनानां च परस्परं सावर्ण्यं न भवति इति सामान्यतः अर्थः. अत्र कश्चन प्रश्नः गतकक्षायामपि प्रतीकमहोदयेन पृष्टमासीत्. मया उक्तं यदि इकारषकारयोः परस्परं सावर्ण्यं भवति अथवा अकारहकारयोः सावर्ण्यं भवति तर्हि दधि षष्ठं दधि सान्द्रम् इत्यादिषु दोषः स्यात् इति. दधि शीतलम् इत्यत्र सवर्णदीर्घः स्यात् इति उक्तं. केन सूत्रेण भवेत् सवर्णदीर्घसन्धिः? इको यणचि इति क्षम्यताम् अकस्वर्णे दीर्घः इति सूत्रेण भवेत्. अकस्वर्णे दीर्घः इति सूत्रस्य अर्थः अकः सवर्णे अचिपरे सवर्णदीर्घः स्यात्. The sutra savarna akasavarna deetha tells you that there savarna deetha will be the adesha, then an akvarna is followed by a savarna ach. Similarly, iko enachi tells ikaha achipare enadesha. It tells you an equal yet a yanadesha when it is followed by an ach. The question here is, even if we have savarna for shakara and ikara, ikah savarne pare shakara is a savarna for ikara is true, but it is not ach. Ach means the pratyahara a e u r r a o i au. Since it is not ach, automatically you will prevent savarna dikha and you will prevent yan. Why do you need an ajhalo for that is the question. Achi pare eva savarna dikha yana deshashta iti uktatvat shakara hakara shakara sakaranam अनच्त्वात् अत्र सन्धेः प्रसक्तिरेव नास्ति. एतस्य निवारणार्थं नाञ्छलु इति सूत्रं करणीयं वा इति प्रश्नः. क्वश्चन् ऐ होप् इस् क्लियर्. इट् इस् दट् सिन्स् इवन् दो हकार षकार एट्सेट्रा सवर्ण दे आर् नाट् अच् सिन्स् दे आर् नाट् अच् ईदर् नीदर् एको एणसि नार् अकस्वर्णे दीर्घः विल् अप्लै हियर्. So to prevent their application, you need not have Natchalav. Even without Natchalav, you will not have any problem because they are not Ach, is the question. Sada chete, atra prashnaha evam, ikara shakarayohu savarnye satyati savarnasikaha katham. Yato ame akasavarne achi pare, ikaha yan achi, ityatra sarvatra ach iti ridhishyate. हकारस्य वा षकारस्य वा अच्त्वं नास्ति इति चेत् यदि सावर्ण्यं स्यात् तर्हि हकारस्य षकारस्यापि अच्त्वं स्यात्. इफ् देवर् सवर्ण देन् इवन् हकार अण्ड् षकार वुड् हेव् बीन् इन्क्लूडेड् इन् अच्. हौ इस् आन्सर्ड् बै द नेक्स्ट् सूत्र विच् टेल्स् अनुदित् सवर्णस्य चातुर्थ्ययः. सवर्णग्राहकं सूत्रम् सवर्णसंज्ञाभिधायकं सूत्रं भवति तुल्यास्य प्रयत्नं सवर्णम् इति. सवर्णग्राहकं सूत्रं भवति अनुदित्सवर्णस्य चातुर्थ्ययः इति. अनुदित्सवर्णस्य चाप्रत्ययः इति सवर्णग्राहकं सूत्रम्. तुल्यास्य प्रयत्नं सवर्णम् इत्यनेन सवर्णसंज्ञा विहिता. द सूत्रतुल्यास्य प्रयत्नं सवर्णम् ओन्ली गेव् द नेम् सवर्ण टु डिफ्रेण्ट् लेटर्स्. इफ् यु हेव् 18 लेटर्स् आफ् अकार 18 टैप्स् आफ् अकार आल् आफ् देम् दट् काल्ड् अकर्णास् आफ् ईच् अदर्. But then there has been nothing which tells you that if you say a, you mean 18. If I am pronouncing say udatta anunasika akara, it is still only udatta anunasika akara. You are not considering all the other types. The types are still different. you have just clubbed them under a name called Savarna. Okay, but there is something which needs to tell you that if you tell akara, it also means akara and akara. Say for example, in iko enati, prasvasya ikarasya api sandhihi bhavati, iti api ityastite, ityapi iti bhavati, dirghasya api sandhihi bhavateva, subhi upasyaha edite, subhi upasyaha iti tatrapi anadeshaha bhavati. Arthat ikarena, prasvakarasya api dhanam asti, dirgha ikarasya api dhanam asti. कथमेतत् इति चेत् अनेन सूत्रेण उच्यते अनुदित सवर्णस्य चाप्रत्ययः चत्वारि पदानि सन्ति अत्र अनुदित सवर्णस्य च अप्रत्ययः अनुदित इत्यत्र पुनः पदद्वये अण् उदित् अण् इति प्रत्याहारः परेण नकारेण प्रत्याहारेषु अयून् इत्यत्र कश्चन नकारः अस्ति लण् इत्यत्रापि नकारः अस्ति तेन द्वितीयेन नकारेण प्रत्याहारे अण् इति प्रत्याहारेण इमे वर्णाः सूच्यन्ते अ इ उ ऋ ए ओ ऐ औ हृ ऋ उदित् इत्युक्ते उत् इत् यस्य सः उत् नाम उकारः इत् यस्मिन् शब्दे अथवा वर्णसमूहे उकारः इत्सम्यकः भवति सः उदित् उदाहरणार्थं कु इत्यस्ति पूर्वमेव अस्माभिः ज्ञातम् अकुह विसर्जनीयानां कर्धः इत्यत्र कु इत्युक्ते कवर्घ इति अस्माभिः ज्ञातं कथं कु इत्यनेन कवर्गस्य ग्रहणम् इति अनेन सूत्रेण उच्यते कु इत्यत्र उकारः अनुनासिकः अनुनासिकत्वात् उपदेशे अधनुनासिक इति सूत्रेण तस्य इत्सम्य भवति तस्मात् कु इत्येतत् उदित् यस्मिन् वर्णसमूहे उकारः इत्सम्यकः भवति सः उदित् अण् इस् अ प्रत्याहार वित् द लेटर् नकार द सेकेण्ड् नकार द नकार आफ् लण् देर्फोर् अण् मीन्स् आल् दीस् लेटर्स् उदित् मीन्स् अ ग्रूप् आफ् लेटर्स् आर् संथिङ्ग् इन् विच् उकार इस् इत् एनिथिङ्ग् इन् विच् उकार इस् गेट्स् द इत् सम्य इस् काल्ड् उदित् For example, you have these five vargas. Ku, chu, tu, tu, pu. In all these, the ukara is anunasika. And because it is anunasika, you get itsamya by the sutra. Upadeshe adanunasika it. And anunasika ach will always get itsamya by upadeshe adanunasika it. Since ukara is it, this ku is called udit. Okay? So this sutra is referring to two parameters. One is an. And the other is Udit. The sutra tells you, Anudit Savarnasya. Savarnasya Grahatah Bhavati. Whenever you are using a letter and one among these and letters, and when you are using, when you are saying an Udit letter, you also take into consideration all the Savarnas. Means if I say a, I mean all the savarnas of akara, which are 18 in number. There are 18 types of akaras, which are all savarnas of each other. This sutra tells you that if I tell a, I mean all 18 of them. It is a sutra which collects all savarnas together. Tulyasya prayatnam savarnam iti sutrena savarna samya diyate savadera. Anena anudit savarnasya chaprateha iti sutrena savarnanam grahanam bhakti. Tulyasya prayatnam savarnam only names the letters as savarnas. This sutra tells you that when you use one of these, either an or udit, then you are collecting all savarnas of it together. Ana udit savarnasya samyasya. So whenever you use an, that is one of these letters, and whenever you use udit, then these letters will be collecting all their savarnas together. So if you say there is something, there is a karya for akara, that karya will also happen for akara. That will also happen for plutakara if there is a chance. So that it was, that is what it means basically. Okay. I don't know how to correct an echo. Any ideas, Ravi?
I can hear it okay at my end. Maybe we can unmute Karuna when the problem is.
Okay. Will you unmute her?
Yes. Sharadaji, can you hear me?
Sharada? Yes, Padyam.
I think her mic isn't working.
Mic.
Yeah. So your voice is a little choppy today, but it's not that bad.
Okay.
Maybe we can continue.
Okay. Ana Udita Savarnakya. The basic meaning of the sutra is that whenever we use an, or when you use Udit, we collect all the Savarnas. We mean to say not only that particular letter, but also all the Savarnas. But then it has conditions attached to it. Anudit Savarnakya Savarnakya. अन्यदपि अस्ति अप्रत्ययः इति अस्ति न प्रत्ययः प्रत्ययः इति समासः प्रत्ययः नाम कः इति प्रश्नः सामान्यतः प्रत्ययः इति पारिभाषिकं पदं प्रत्यय इस् जनरलि ए टर्म् विच् इण्डिकेट्स् अ प्रिफिक्स् से अण् प्रत्यय आर् सु प्रत्यय आर् किं प्रत्यय एक्सेट्रा किन्तु अस्मिन् सूत्रे प्रत्ययः प्रतीयते विधीयते इति प्रत्ययः प्रत्ययः कः यः विधीयते एनिथिङ्ग् विच् इस् नो हौ टु काल् इट् विधीयते इन् इङ्ग्लिश् एनिथिङ्ग् विच् इस् आल्
माण्डेटेड्
सोरि हा माण्डेटेड् ओके फार् एक्साम्पल् इफ् यु हेव् को यनति that sutra mandates that you replace ik with yan. So yan also becomes the pratyaya by this definition. Asmin sutra eva pratyaya nama yaha vidhiyate pratyaya nama vidhiyate saha pratyaya. Iko yanachi ityasya yan vidhiyate tasma saha pratyaya. Eva akasavarane dirghaha ityatra dirghaha vidhiyate sopi pratyaya. हस्तमध्यापो नुट् इत्यनेन नुट् विधीयते यद्यपि सः आगमः इति प्रत्ययः इट् सी दट् देर् इस् अ डिफरेन्स् वेन् यु यूसिङ्ग् द टेक्निकल् टर्म्स् प्रत्यय आदेश आगमः दे आर् वेरि स्पेसिफिक् टर्म्स् प्रत्यय इस् अ सफिक्स् एण्ड् आगम इस् अन् एडिशन् दट् इस् समथिङ्ग् विच् इस् कमिङ्ग् एक्स्ट्रा एन् इन्कमिङ्ग् पार्टिकल् एण्ड् एन् आदेश इस् दट् विच् रिप्लेसस् दीस् आर् द यूशुवल् टर्म्स् But in this sutra, by the term pratyaya, you are collecting all three. Anything which is mandated by a sutra is called a pratyaya. Okay? So, apratyaha. Apratyaha ana nama avidhiyamanaha ana sudhishtha savarnasya samyaya. Adho udaharanam darshaya. Itaha apratyaha ityupe kim iti pashya. And akasavarne dirghaha ityupe. अकः सवर्णे अचिपरे दीर्घः स्यात् अक् इति प्रत्याहारः अक् प्रत्याहारेण अ इ उ ऋज् एते वर्णाः दृश्यन्ते सर्वे अणः अण्वर्णाः अणुदित् सवर्णस्य इत्युक्तस्मात् अकारः इत्युक्ते ह्रस्वस्य अकारस्यापि सवर्णदीर्घसन्धिः भवति दैत्य अरिः दैत्यादिः दीर्घस्य अकारस्यापि सवर्णदीर्घः भवत्येव विद्यालयः विद्यालयः It is because of this sutra, the Savarna Grahaka Sutra, Anudit Savarnasya Sampratyaha. It is because of this sutra that Akasavarna Dirghaha applies not only for Hraswa but also for Dirgha. Similarly, Iko Enasi, Ik Iti Pratyaharaha, Iu Rildu. Ikanasthane Enadeshaha, Hraswasyapi Bhavati, Madhu Arihi Madhvarihi, दीर्घस्यापि भवति बहु आदेशः वर्धादेशः एवमेव अस्य छौ इति एकं सूत्रमस्ति अकारस्य द्विप्रत्यये परे इकारः आदेशः भवति इति सूत्रार्थः द सूत्र टेल्स् दट् द अकार इस् रिप्लेस्ड् बै इकार वेन् इट् इस् फालोड् बै द्विप्रत्यय शुक्ल द वर्ड् अ वेर् देर् इस् अ ह्रस्व अकार विल् गेट् इकार बै द सूत्र एण्ड् बिकम् शुक्ली भवति Mala with a Dirgha Akara will also get ikara resha by the same sutra. Because a also means, a means 18 by this sutra. This savarnasya chapratyaha iti sutra, akaraha ityukte ashtadasha prabhedaha. Tasmat akarasya yata karyam uchyate, tata akarasya api bhavati. Sutasya api अनुनासिकस्य भवति यत् आयः विद्यते ह्रस्वैकन्तस्य चि अथवा जि इति धातोः भवति चि इत्यनेन चयः इति जि इत्यनेन चयः इति दीर्घस्यापि भवति
सम्यक् ऐ थिङ्क् वि लास्ट् इट् फार् अवर् 20 सेकेण्ड्स्
वेरि वेल्कम् टु देम्
यु आर् टाकिङ्ग् अबौट् प्लुत आकार
केन यमिना
Yes, also maybe it's the recording at your end. Can you pause it for today? Because we are already recording.
Oh, sure. I stopped the recording.
Okay, great.
So we carry on for free. Okay, better. अनेन सूत्रेण अनुजस्वर्णस्य चाप्रत्ययः इति सूत्रेण यत्र यत् अकारः दृश्यते तत्र अष्टादशप्रच्छेदानामपि ग्रहणं भवति अस्य अकारस्य इकारादेशः विधीयते चेत् ह्रस्व अकारस्यापि भवति क्षुत्री भवति इत्यत्र दीर्घाकारस्यापि भवति माली भवति माला इति दीर्घाकारान्तस्यापि भवति एवमेव एरच् इकारस्य इकारान्तस्य धातोः अच् प्रत्ययः विधीयते सः चि इति ह्रस्व इकारान्तस्य धातोः भवति चीकयः इति भी इति दीर्घस्यापि भवति भी इत्यनेन भयम् इति सो दिस् सूत्र इट् इस् अनुसवर्णस्य च प्रत्ययः विच् विल् टेल् दट् टु कन्सिडर् आल् सवर्णस् फार् डूयिङ्ग् एनि कार्य सो बट् दिस् कम्स् वित् अ कण्डीशन् अटाच् दट् इस् अभिधीयमानः इफ् इट् इस् being mandated, if it is the Vidheya in a sutra, it will not take the Tapasas. Let's see one example. There is a sutra called Idam Ish. The Idam Shabda is replaced by E. Ish is Shakara becomes it and it is replaced effectively by E. Right? Now, if I say Anude Savarnasya Taprasyaha, the E will bring along with it all 18 types. Okay. Now, if I have to replace them with Ikara, which Ikara do I use? Do I use all 18? Do I use one of them each in a succession? Or do I select one of them? Is the question. Right? Which cannot be solved. That is why Panini tells, Avidhiya Manaha, when it is not being mandated, then only it will take its Savana. If it is being mandated, Vidheya, is in this sutra, Idama Ishityatra, Ikaraha Vidhiyate, Idam Shabdasya Sthane, Ikaradeshaha Vidhiyate, Yatra Vidhiyamanaha Ana, Tatra Savarnat Vidrahanam Nasti, Yaha Vidhiyate, Sa Eva Kriyate. Wherever there is Vidheya, it is being mandated, you do only that. If there is Hraswa Ikara, if Panini tells, replace it with a Hraswa Ikara, E, you replace If he says replace with E, you replace with E. That is all. There is no Savarana Grahana in case of Vidhiyamana. What is Vidhiyamana? Any Agama, Adesha, Pratyaya, anything which is mandated by a sutra is Vidhiyamana. So in case where an is Vidhiyamana, for example in Idam Ish, Idam Ishi Ketra, Itaraha Vidhiyate, Idam Shabdasya Sthane Itaraha Vidhiyate. तस्मात् तत्र सवर्णग्रहणं नास्ति सर्वत्र ह्रस्व इकारः एव आदेशः भवति दीर्घ इकारादेशः न भवति अत एव सूत्रे उक्तम् अनुदिसवर्णस्य च अप्रत्ययः अप्रत्ययः नाम प्रतीयते विधीयते इति प्रत्ययः अविधीयमानः अण् सवर्णस्य ग्राहकः स्यात् इति कश्चन भागः उदित् इत्यपि अस्ति. उदितः उदाहरणं किम् इति चेत् चोः खु इति सूत्रम् अस्ति. सवर्गस्य चु इत्यस्य षष्ठी चोः, शम्भो इत्यस्य यथा शम्भोः तथा चु इत्यस्य चोः. चोः नाम चु इत्यस्य स्थाने कु इति आदेशः भवति. चु इत्युक्ते किम्? इदानीम् उक्तम् उदितसवर्णस्य ग्राहकः स्यात्. यत्र उकारः इत्सम्यकः भवति तत्र सर्वेषां सवर्णानां ग्रहणं भवति. सकारस्य सवर्णाः के? चिल्झिल्झिल्झिल्ञ इति पञ्चसवर्णाः. तस्मात् चु इत्युक्ते सवर्गाक्षराः. एवमेव कु, कु इत्युक्ते सवर्गाक्षराणि. चोः कुः सवर्गस्य स्थाने कवर्गः आदेशः भवति. अत एव च इत्यस्य स्थाने क आदेशः भवति. वाच् इत्यस्य वाग्भ्यां, वाक्भ्यां वाग्भ्याम् इति भवति. एवमेव जकारः अस्ति चेदपि जकारस्य स्थाने गकारः आदेशः भवति. ऊर्ग्भ्याम् इति उदित् इत्यस्य उदाहरणम्. अण् इत्यस्य उदाहरणं भवति अकस्सवर्णे दीर्घः अथवा. उदित् इत्यस्य उदाहरणं भवति चोः. इफ् यू गो बेक् टु द सूत्र, वी हेड् ऐ थिङ्क् नौ वि आर् क्लियर् वित् आल् द टर्म्स्. देयर् टु फोर् टर्म्स्. अनुदित सवर्णस्य अप्रत्ययः, अण् इस् द लेटर्स् आफ् द प्रत्याहार, इ उ द उ एक्सेट्रा. उदित् इस् एनीथिङ्ग् विच् हेज् उकार अस्ति. Both these things will collect their savarnas whenever they are mentioned, as long as they are not the vidheya, they are not being mandated. For example, in akasavarna dirghaha, or say asti spouse, akara is not being mandated. In the place of akara, you are doing something else. You are replacing akara with a dirgha or with a ikara. So akara is avidhiyamana. Wherever an is avidhiyamana, there it will collect all its savarnas. Similarly, wherever you have udit, it will also collect all its savarnas. This is what this sutra tells. Idameva savarna grahakam sutram iti kathyate. Dikshita idu uttam pratiyate vidhiyate iti pratyaha avidhiyamanaha ana uditya savarnasya samyasya. अत्र अण् परेण नकारेण. अत्रैव एकमेव सूत्रमस्ति यत्र अण् इति प्रत्याहारः परणकारेण क्रियते. देयर् आर् टु नकारास् इन् द माहेश्वरसूत्र, वन् इन् ऐगुम् अण्ड् द अदर् इन् लण्. यु केन् मेक् अण् वित् बोत् नकारास्. देर् विल् बि वन् विच् कलेक्ट्स् ओन्लि अ ईगु अण्ड् द अदर् विच् गो स्टिल् ल हयवत् ल. ओन्लि इन् दिस् सूत्र, ओन्लि the only case where an is with the paranakara is this sutra. In all other sutras, wherever you hear an, it is always with the first nakara. An always means a e u. The only exception is this sutra. In this sutra, an means a e u l l a o I o hai vara la. How do we know this? It's again vyakhyana. Bhashya vyakhyatam asmin sutra an parena nakarena अन्यत्र सर्वत्र पूर्वणकारेण इति. तस्मात् अत्र अण् इत्युक्ते लणः कारेण प्रत्याहारः. संक्षेपः दीयते. प्रत्येकम् अ इति अष्टादशानां संज्ञा. यत्र कुत्रापि व्याकरणे अ इति उच्यते चेत् अष्टादश अकाराः अपि गृह्यन्ते, तथा इकार उकारु. इकारस्यापि अष्टादशप्रभेदाः, उकारस्यापि अष्टादशप्रभेदाः. ऋकारः त्रिंशतः. ऋकारः ऋवर्णयोः विध सावर्ण्यं वाच्यम् इति वाचिकेन उक्तम्. तस्मात् ऋकारस्यैव अष्टादशप्रभेदाः सन्ति, ऋवर्णस्य द्वादशप्रभेदाः सन्ति, आहत्य त्रिंशत् भेदाः. ऋकारः हेस् 18 आफ् इट्स् ओन् टैप्स्, ऋकारः हेस् 12 टैप्स्. सिन्स् वि ऑर्डेन्ड् सावर्ण्य फार् द टु ऋकार ऋकारयोः परस्परं सावर्ण्यं वाच्यम्, ईच् आफ् देम् विल् नौ कलेक्ट् 30. Rikara, wherever you say Rikara, you are meaning 30 members. You are collecting 30 members together. Similarly, whenever you say Rikara, you take 30 members together. An example of this is Purandra Praha. Uhu means Rikarasya. ऋकारस्य स्थाने यः अण् सः रपरः भवति इति सूत्रार्थः. Wherever you are replacing a rukara with an and, you add on a repha, is what the sutra tells. You also apply this to rukara. So wherever rukara is replied, there also you have rapara. So we'll see this sutra in detail later. Just wanted to give this as an example for where rukara collects kharti of its types. Etaha dvadashana. A-O-L-O. इति चत्वारः वर्णाः सर्वेऽपि द्वादशानां वर्णानां ग्राहकाः. पूर्वमुक्तं दीक्षितैः द्वर्णस्य द्वादश तस्य दीर्घाभावात् एचामपि द्वादश तेषां ह्रस्वाभावात् एच्वर्णानां ह्रस्वः नास्ति तस्मात् प्रत्येकं द्वादशभेदाः. ए इत्युक्ते द्वादशभेदानां ग्रहणम्, ऐ इत्युक्ते द्वादशभेदानां ग्रहणम्. कश्चन प्रश्नः, एकारस्य ऐकारस्य च परस्परं सावर्ण्यम् अस्ति वा इति प्रश्नः. यतोहि एकैतोः कण्ठतालु इति सूत्रेण उभयोः स्थानं कण्ठतालु, विवृतम् ऊष्मणां स्वराणां प्रयत्नेन उभयोः विवृतः प्रयत्नः, तुल्यास्य प्रयत्नं सवर्णम्, आस्यं नाम स्थानं, कण्ठतालुस्थानं समानमस्ति, विवृतप्रयत्नस्तमानमस्ति, परस्परं सावर्ण्यम् अस्ति वा, एकारस्य ऐकारः सवर्णः भवति वा, एवम् ओकार औकारयोः ओदौतोः कण्ठोष्ठम् उभयोः कण्ठोष्ठं स्थानं विवृतः प्रयत्नः, तस्मात् ओदौतोश्च सावर्ण्यम् अस्ति वा इति चेत् नास्ति. एदैतोः ओदौतोश्च न निधस्सावर्ण्यम्. किमर्थम् ऐ औच् इति सूत्रारम्भसामर्थ्यात् माहेश्वरसूत्रेषु ए ओम् इति सूत्रमस्ति, अयौच् इत्यपि सूत्रमस्ति. यदि एकार ऐकारयोः परस्परं सावर्ण्यम् अभविष्यत् तर्हि अयौच् इति पृथक् सूत्रं किमर्थम्? सूत्रं न करिष्यत् पाणिनिः. इफ् एकार एण्ड् ऐकार वेर् सवर्णास् अ फीचर्, पाणिनि वुड् नाट् हाव् टोल्ड् अयौच् सेपरेट्लि. सी इन् अ इ उन् हि टेल्स् ओन्ली अ, हि डस् नाट् टेल् आ. Why? Because Akara is a Svarna of Akara and can be collected by Akara. Similarly, if A and I were Svarna Rasikata, Panini would have just said AO and told that you take I from A. Since he started, or since Maheshwara, Maheshwarena I out is a Ruthakaya Nirdishta, Tasmata Ekarasya Aikarasya Okara Okara Yoshta Parasparam Savaranyam Nasti. एदैतोः ओदौतोश्च न मिथस्सावर्ण्यम् अयौच् इति सूत्रारम्भसामर्थ्यात् तेन एकः चतुर्विंशतेः संज्ञाः स्युः इति नापादनीयम्. देर्फोर् डु नाट् आर्ग्यू दट् ए शुड् कलेक्ट् 24. जस्ट् लैक् ऋकार कलेक्टेड् 18 आफ़् इट्स् ओन् एण्ड् 12 आफ् ऋकार एण्ड् बिकेम् 30, यू केनाट् से दट् ए विल् टेक् 12 आफ़् इट्स् ओन् एण्ड् 12 आफ् ऐ and will be 24. No, A is only for 12. I is again only for 12. There is no savaranya for ekara and aikara. Okay. Etavata anudit savaranasya sastrasyaha. It is utrashayaha. Asimishaya kopi sandehaha astike prashkumarsam. You might not get complete clarity in this matter in the first hearing. As we go on, you'll understand. When we apply these cases to actual prayogas, you'll understand better. For now, if you have any questions, if you would like me to repeat anything, any part, please ask.
We have two raised hands somewhere.
Namaste, Mohde. Pratyayah iti shabdasya, yaha artha visheshah bhavatya uktaha adya, tasya punarikavaram vivaranam krishyativa.
Asmin sutre, samanyataha pratyayah ityukte yaha parataha vidhiyate. Pratuteha paratvena yaha vidhiyate yaha pratyayah. विशेषतः प्रत्ययः इति अधिकार्थः एव अस्ति अष्टाध्याय्याम्. तीन प्रत्ययाः सुप्रत्ययाः प्रत्ययः कथितप्रत्ययाः इति किन्तु अस्मिन् सूत्रे सः अर्थः नास्ति अस्मिन् सूत्रे प्रत्ययः नाम प्रतीयते विधीयते इति प्रत्ययः सूत्रे यद्यत् विधेयं भवति तत्सर्वमपि प्रत्ययः इति उच्यते उदाहरणार्थम् इको यणचि इति सूत्रे इकः स्थाने यण् विधीयते तस्मात् यण् प्रत्ययः अपसवने दीर्घः इत्युक्ते दीर्घः विधीयते तस्मात् दीर्घः प्रत्ययः अस्मिन् सूत्रे एव एतादृशः अर्थः क्रियते अन्यः कोऽपि प्रश्नः
मोहनमूर्ति
Mohana?
That was my question too. Can you again repeat it in English for me? First, I'm not very clear about the apratyaya part.
Apratyaya in the sutra means accepting cases. A means na. So it says the savarana grahana will be only in cases where it is not a pratyaya. That is the basic meaning. And will be collecting all its I mean, whenever I say akara, it will mean 18 sides, as long as the akara is not the pratyaya, is what the sutra says. Right? So, what is the pratyaya? That's a question. Pratyaya, generally we call it as a suffix. But in this sutra, it is not just a suffix. Any adesha, a replacement, agama, or anything at all which you do can be a pratyaya. Any karya which is done by a sutra is called a pratyaya. For example, iko yanati you say, where it is repeated by yan. Yan is not a pratyaya by usual standards. Yan is not a suffix. Yan is an adesha, a replacement. But for the purposes of this sutra, for another savarna is a pratyaya, yan is also a pratyaya. Means, if you are saying yan, yan will not take its savarna. Yan will only mean yavarul and not any savaranas of yan. Similarly, in somewhere else, if you have achagavihana, if you have akara which is being ordained, for example, I showed you an example called idama ish, where itara is replacing the shabda idam. Okay. Now, the itara will be pratyaya by this definition. Because the sutra is ordaining or mandating you to do e in place of idam. Since it is a pratyaya, you will not take its savarnas. You will take only ikara and not the savarnas of ikara.
Okay.
Still not clear?
Yeah, thank you very much. I understand.
No, this will definitely become much more clearer when we actually apply this in an example.
Hello. I am still not clear about the question raised yesterday. Like how Dadi and Sheetalam, how can there be a Dirgha Apatti there? Because in Iko Yanachi it specifies Ach. I am still not clear about that.
So, Iko Yanachi tells you, when it is followed by Ach, you will get Yanadesha. Right? Now, what is Ach? Ach is a Yodil, etc. Now, from this sutra, from Anudit Saparanasi Sakratyaya, since it is not a Pratyaya, you will be taking all the Savaranas. Right? So ach, in ach, the akara means a-a-a-h.
Okay.
Iti adi will become iti adi. Because ach is, a is taking all its savaranas.
Okay.
All savaranas of akara will be treated as ach because of the sutra.
So sha will also
treat. So akara, sorry.
There sheetalam sha will also be treated as ach.
Exactly. If Ikara and Shakara were savaranas of each other, Shakara would also be treated as a Akara and Hakara were Savarnas. Hakara would also be treated as a by this sutra. Because this sutra tells you take all Savarnas with it.
Okay. Yes, ma'am. Clear. Thank you.
आं महोदय एतत् पुनरपि अनुदित सवर्णस्य च प्रत्ययः इति सूत्रविषये किमपि प्रष्टुमिच्छामि यत् भवत्या उदाहरणं दत्तम् इको यणचि इति तर्हि तत्र यण् इति प्रत्ययसंज्ञां प्राप्नोति इत्यतः विधीयमानः अस्ति इत्यतः तस्य सवर्णान् वयं न स्वीकुर्मः न वा आम् किन्तु तत्रैव यः इक् अस्ति सः तु विधीयमानः नास्ति इत्यतः वयं तस्य सवर्णं स्वीकुर्मः एवं वक्तुं शक्यते वा
सत्यं समीचीनम्
एवम् अस्तु स्पष्टं धन्यवादः
Anymore?
Yes, I'm here.
If this is clear, go back a bit to Najhalav. Okay? We left Najhalav by taking a very simple meaning of Najhalav. We thought that Najhalav only means earth and hell are not Savarnas to each other. Now there's a problem. Okay, let me base the problem. The problem. Bhashya Mahabhashya. Bhashya Karena Kashtana Kramaha Dasaha. Katham Vyakarana Shastre Prakriyaniti. Pranana Upadesha Svapata. Upadesha Uttara Kala Itchamya. इत्संयोत्तरकालः आदिहन्तेन सहेता इति प्रत्याहारः प्रत्याहारोत्तरकाल सवर्णसंज्ञा सवर्णसंज्ञोत्तरकालम् अनुदित्सवर्णश्चाप्रत्ययः इति सवर्णग्रहणम् एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानां ग्रहणं भवति इति महाभाष्यकारैः उक्तम् भाष्यकारः इस् गिविङ्ग् यू द आर्डर् इन् विच् थिङ्ग्स् हापन् इन् जातम् What is the first thing to happen? Maheshwara Sutreshu Varanaanam Uparishaha. Adav Kadeva Jayapastalu. Ayi Umnityadina Varanaha Adav Upadishtaha. Tataskaram Kim Jatam. Halantyam Iti Sutrena. Antya Varanaanam Itsamya Prapta. The last letters of the Maheshwara Sutra got Itsamya. That is the second step. The first step is telling the alphabet. The second step is giving the itsamya to some of the alphabet. Tataha itsamyayam jatayam adirantena saheta itsamya pratyaharaha tataha. Antena itasahitaha adihite. Rutiya stare pratyaharaha tataha. Anach ityadaya pratyaharaha krataha. Pratyahareshu dhyateshu savarana samya datta. Once you had the pratyahara, then only you get the savarana samya. पुण्यास्य प्रयत्नं सवर्णं नाच्छलौ इति सूत्रद्वयेन सवर्णसंज्ञा पुण्यास्य प्रयत्नं सवर्णम् इति सूत्रेण सवर्णसंज्ञा विहिता नाच्छलौ इति सूत्रेण सवर्णसंज्ञा विषिद्धा मिलित्वा एव सवर्णः इत्युक्ते कः इति ज्ञातः सवर्णसंज्ञायां ज्ञातायाम् अनुदिसवर्णस्य शास्त्रत्वः इति सवर्णानां ग्रहणम् आफ्टर् यु डिसैडेड् वाट् इस् we thought that we can take the savarnas of each letter by the sutra another savarna se satyatya this is order which has to be followed you cannot do a pratyahara unless you know itsamya you cannot do itsamya unless you know the alphabet you have the maheshwara sutra you cannot do savarna samya before knowing the letters or knowing the pratyahara because sajlav uses the pratyahara without knowing the pratyahara you cannot do savarna Without knowing Savarana Samya, you cannot do Savarana Grahana. Anudit Savarana Sya Ishikta Swatan. सवर्णस्य ज्ञानं विना सवर्णग्रहणं न सम्भवति. एषः क्रमः व्याकरणे. एतेनैव क्रमेण सवर्णग्रहणं भवति. ततः अन्येषु सूत्रेषु इकोयणसि इत्यत्र वा अकर्तवर्णे दीर्घः इत्यत्र वा एतद् अनन्तरमेव तत्र इक् इत्युक्ते किम् अच् इत्युक्ते किम् इत्यादिरीत्या ज्ञायते. इदानीं प्रश्नः, उदाहरणार्थम् इकोयणसि इत्यादिषु अचि इत्युक्ते सर्वेषां स्वराणां ग्रहणं भवति. स्वराणां सङ्ख्या अस्माभिः तद्दिने दृष्ट्वा द्वात्रिंशदुत्तर एकशतं स्वराः सम्भवन्ति. इकोयणसि इत्यत्र अचि इत्युक्ते सर्वेषां स्वराणां ग्रहणं भवति. एतत् सर्वं कृत्वा किन्तु साच्छलौ इति सूत्रे अच्पदेन कस्य ग्रहणम् इति प्रश्नः. इकोयणसि इत्येतत् अच्पदेन एतासाम् एतेषां सर्वाणां सर्वेषां स्वराणां ग्रहणम् अस्ति. किन्तु नाञ्छलौ इत्यत्रापि अच् इत्यस्ति. तत्र अच् इति शब्देन अस्य ग्रहणम् इति प्रश्नः. यतोहि सवर्णग्रहणं भवति अग्रिमस्तरे. यु आर् कलेक्टिङ्ग् द सवर्णस् ओन्लि इन् द नेक्स्ट् स्टेप्. वाट् विल् अच् मी इन् दिस् स्टेप् इति प्रश्नः. After you have completed all these steps, if you go to other sutras, you can say that Ach means all 132 swaras together. But when you are at this step, when you are at the fourth step, what will Ach mean? Can it take all the swaras? It cannot, because the next step, Savarna Grahana, has not happened yet. So, in Najhalav, Ach will not mean 132 swaras. So, what will it mean? It will only mean what has been done earlier to Najhalav is the Pratyahara. You have done the Pratyahara using the Maheshwara Sutra. So, as far as Najhalav is concerned, Ach will mean only those letters which are there in the Maheshwara Sutra. A, E, U, R, Z, A, O, I, O. It is Navaira Swaraha. Najhalav iti Sutra Drishya. अच् इत्युक्ते नवस्वरः बिकास् द सवर्णग्रहण हापन्स् इन् द नेक्स्ट् स्टेप् अण्ड् हज़न्ट् हापन्ड् येट् नाच्छलौ डस् नाट् सी अच् अस् 132 स्वराः विच् विल् ओन्ली टेक् 9 स्वराः विच् इस् वाट् एवर् हेस् बीन् टोल्ड् इन् द माहेश्वर सूत्र. वै दिस् हापन्स् इस् बिकास् अनुदत् सवर्णस्य प्रत्ययः यूसस्य संज्ञा Savarna. Unless you know what is Savarna, you cannot apply this sutra. To know what is Savarna, you need both these sutras. Suryasya Pratham Savarnam and Najhalav together. Without both of them together, you will not know what Savarna is. So, unless you are clear about these two sutras, you cannot apply Anudit Savarna se Sakratyaha. If you do not apply Anudit Savarna se Sakratyaha, Aj in Najhalav will only mean A, E, U, R, Z, A, O, I, O. Only 9 swaras. Right? So, this is it. Ach, Najhalav iti sutre, Ach iti utte, Navaira swaraha. Ataha, Ajhalohu, Rasparam Savarne Masti iti utte, Akarasya Kenapi Vendanena saha. Harasa Akarasya Kenapi Vendanena saha Savarnyam Masti. Akarasya Hakarena saha Savarnyam Masti. इत्युक्ते ह्रस्वाकारस्य हकारेण सह सावर्ण्यं नास्ति. ह्रस्व इकारस्य षकारेण सह सावर्ण्यं नास्ति. ह्रस्वऋकारस्य षकारेण सह सावर्ण्यं नास्ति. ऋकारस्य ऋकारः ह्रस्व एव भवति. ह्रस्वस्य ऋकारस्य हकारेण सह सावर्ण्यं नास्ति इति नाच्छलौ इति सूत्रेण ज्ञातम्. किन्तु दीर्घाणां सावर्ण्यं भवत्येव. दीर्घाकारस्य हकारेण सह सावर्ण्यं भवति. यतोहि उभयोः स्थानं कण्ठः प्रयत्नः समानः. तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन दीर्घ आकारस्य हकारस्य च सावर्ण्यम् इतोपि अस्ति. ईवन् आफ्टर् डूयिङ्ग् द सूत्रान् अध्ययनं वि हाव् सवर्णसंज्ञा फार् दीर्घ आकार एण्ड् हकार. बिकास् इन् नाच्छलौ अच् मीन्स् ओन्लि दर वि नाट् कलेक्ट् द विभक्तर. वाट् इस् द प्राब्लम् इफ् Dirha Akara and Hakara are Savarnaga feature. Lihu Phihi Ittrati Khodhaha Iti Kashtana Sutra Padantasya Hakara Sya झलि पदान्ते च ढकारः आदेशः भवति. Hakara will be replaced by dhakara, is what this sutra says. Now, if hakara is the varna of dirgha akara, when you have hakara lih bhihi, you get lid bhihi. Similarly, if you had vishvapa bhihi, akara se hakarena kaha yadi savarna samyam bhavati, that he akara se dhakara leshah syat, iti apatihi. That is, have savarna between akara and hakara, just like you replace hakara with dhakara, you will have to replace akara with dhakara. But we do not want. The actual form is vishvapakihi with no hakara. So how do you prevent? You cannot prevent savarna between dirgha akara and dirgha hakara by just saying na ach halo, because ach will not consider the dirgha. Right? To solve this problem, to add an akara in nachalo. Nachalo is split as not na ach halo, but as na a ach halo. A plus ach. This should be a. Sorry, this letter is not a, this is a. A ach ach. It is Svarna Dirgha Sandhi, so it becomes ach. Ach halo. Na ach halo, na jhalo. Means, अच्छल अतः असाम हलांत परस्परम सावरण्यम नास्ति आकार से हलांत परस्परम सावरण्यम नास्ति. You are adding an extra akara there. This is called prashlesha. Prashlesha is where savarna is integrated so that you will not know that the para is there. When you see na jhalo, you will not know if it is na achhalo or na achhalo. There is an extra akara there, which is not seen easily. That is why it is called prashlesha. So the sutratha means akara and ach will never be savarnas of hal. That is why if you remember at the end, the Nadhyam Sutratha told that akara sahitaha ach ach sata hal cha ityeto mitha savarna nastaha. Akara will not be savarna with and ach, a e o l a o I o will not be savarna with ach, is what this sutra says. That is why vishvapabhihi yatra nachalo iti savarnyam shena yadyapi akshar samamnayitana meva nachalo iti sutra achitrena अक्षर समानाय महेश्वर सूत्रेषु ये स्वराः तेषामेव ग्रहणम् तस्मात् दीर्घस्य सावर्ण्यम् नाच्छलो इत्यनेन न निषिध्यते तथापि हकारस्य आकारः न सवर्णः तत्र आकारस्यापि प्रश्लिष्टत्वात् तेन विश्वपाकिः कोऽर्थः इति वक्तुं न भवति. दिस् कम्प्लीट्स् नाच्छलो. Nachalo not only means that ach and hal are not savarnas for each other, it also means that akara and hal are not savarnas for each other. How do you do it? By putting an extra akara there. I mean, the extra akara is already there. You need a commentary to know that that extra akara is there. Okay. So this is about nachalo and anudhisavarnasya sastrasya. All these three are very important sutras. तुल्यांसे प्रयत्नं सवर्णम् आच्छलो अनुदिष्ठवर्णस्य शास्त्रस्यः सर्वेषां विषये ज्ञानम् आवश्यकम्. इदानीं यद्यपि मया उक्तं स्थितिव ज्ञातं तथापि अग्रे स्पष्टं भविष्यति इति मत्वा अग्रे किञ्चित् वदामि. सवर्णविषये अस्ति अनुनासिक अननुनासिकभेदेन यवलाः द्विधा य वल इति त्रयाणां व्यञ्जनानामपि सवर्णः भेदः अस्ति अनुनासिक अननुनासिक इति. तेन अननुनासिकास्ते द्वयोर्देव संज्ञाः यकारस्य सवर्णद्वयं य इति ञ इति अनुनासिकः यकारः एवम् अननुनासिकः वकारः अनुनासिकः वकारः अननुनासिकलकारः अननुनासिकलकारः. तेन अणुदित्सवर्णस्य अण् इत्यत्र हयवर् इत्येतेषामपि ग्रहणम्. तेन यकारः इत्युक्ते सर्वदा यद्वयम् अनुनासिक अननुनासिक उभयेषां ग्रहणम्. व इत्युक्ते उभयेषां ग्रहणं, ल इत्युक्ते अपि द्वयोरपि ग्रहणम्। उदाहरणं यत्र यत्र प्रयोगः अस्ति तत् संयमः संयमः, उच्चारणे अपि व्यत्ययः अस्ति। संयमः इति उच्यते चेत् तत्र समासः अनुनासिकयकारः, अयम् अनुनासिकसंज्ञा यकारस्य उपरि स्यात्। ऐ कुड् नाट् गेट् दिस् चन्द्रबिन्दु ओवर् यकार इन् टैपिङ्ग्, बट् दिस् चन्द्रबिन्दु इस् आक्चुलि फोर् द यु, द यु इस् अनुनासिक संयमः, आर् यु केन् प्रनौन्स् इट् एस् संयमः। सिमिलर्लि संवत्सरः संवत्सरः, विद्वान् लिखति विद्वान् लिखति इत्यत्र अनुनासिकलकारवकारयकाराणां प्रयोगः दृश्यते। यत्र यत्र यवलाः उच्यन्ते तत्र द्वयोरपि अनुनासिकनिरनुनासिक द्वयोरयोः ग्रहमस्ति इति सवर्णसंज्ञा प्रकरणम्। दिस् एण्ड्स् द टापिक् आन् सवर्णा। देर् इस् द सवर्णसंज्ञा विच् इस् गिवन् बै तुल्यास्य प्रयत्नं सवर्णम् एण्ड् अ वार्तिका काल्ड् ऋजुवर्णयोः मिथत्सावर्ण्यं वाक्यम्। देर् इस् एन् एक्सेप्शन् आर् अ निषेध टु द सवर्णसंज्ञा बै नाच्छलो। And there is the collection, grahana of all savarnas by anudit savarnasya sapratyayaha. So all this is included under the topic of savarnas. Okay, that's it for today. Any questions? You can ask.
Namaste Swamiji, this is Kalpesh here.
Huh.
Can you please go up on that page?
Yes.
So, I have a question here. In this Na Aach Halau,
yes.
Is Aach a valid Pratyahara?
Aach is a Pratyahara.
Ach is a pratyahara.
You make a samasa of a with ach. Ach achcha. A samahara.
Oh.
It becomes ach.
Okay.
Because ach is not a pratyahara. Ach is the pratyahara. You are joining with a separate particle a.
Okay, okay. Thank you.
Any other questions? A bit heavy lesson today, but just go home and read the sum, should be better. If you have any questions at any time, you are welcome to mail me or even ask me before the next class or any time. So, we'll post this file today, so just read it up a bit, and then if you have any doubts, you can ask. So, can I wrap it up for them if there are no questions?
ृतिकारतन्त्रिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मित्रयम् मुनित्रयम् नमस्कृत्य चतुर्थीः परिभाव्य च वैयाकरणसिद्धान्तकौमुर्यम् विरच्यते।